పుస్తకం నచ్చే మరణం పద్యం విస్మృతం కిల
నిర్మితి ఆదరతి భారతి కవేర్జయతి.
సంలక్ష్య క్రమ వేది విభాగ సంలక్ష్య క్రమ సంలక్ష్య క్రమ వేదస్య విభాగ క్రమం దర్శయ అనుస్వానాభ సంలక్ష్య
అనుస్వానాభ సంలక్ష్య
ఘంటావాదనం కరోతి క్రమశః ఏకం స్వనం అనుసరతి అనుస్వానం క్రమ అనురణరూపధ్వని త్రిధా విభాగ శబ్దశక్తి విభవ అర్థశక్తి విభవ ఉభయశక్తి విభవ ఇది త్రిధా శబ్దశక్తి మూల అనురణరూప వ్యంగ్య అర్థశక్తి మూల అనురణరూప వ్యంగ్య ఉభయశక్తి మూల అనురణరూపే క్రమేణ ఉదాహరణని శబ్దశక్తి భవత్వం తత్ర అలంకారోత్సవ
అలంకారోత్సవ శబ్దాభాసతే ప్రధానత్వేన తజ్ఞేయ శబ్దశక్తి ఉద్భవోద్విద
తత్ర శబ్దశక్తి భవ అనురణ రూప కథం ఇది చేత అలంకారరూప వస్తురూప అలంకార అథవా వస్తు ఏం శబ్ద అలంకార జ్ఞాయతే చేత కుత్రచిత్ వస్తు జ్ఞాయతే అత అలంకారరూప వస్తురూప శబ్దశక్తిమూల అనురణరూపధ్వని వస్వేవ ఇది అనలంకారం వస్తు మాత్రం వస్తునాం కిం ఇది చేత ఎత్ర అలంకార నభవతి కించన వస్తు తావదే వస్తురూపం నామ అలంకార నభవతి కించన వస్తు తత్ర భవతి తావదే తత్ర ఆద్య యథ నామ అలంకార యథ సత్కార్యో యథ ఉల్లాస్య కాల కరవాల మహాంభువాహం
ఉల్లాస్య కాల కరవాల మహాంభువాహం
కచ్చన మహారాజ అస్తి సహ మహారాజ తస్య ఖడ్గదారాయా జలధారయా ఖడ్గ అస్తి ఖడ్గస్ తీక్ష్ణ దారా అస్తి తయా ఖడ్గదారయా సహ కిం కృతవాన్ ఇది చేత తస్య ధారాజలై రిపూణాం ప్రతాప కిం కృత నిర్వాపిత ఎవత్పర్యంతం శత్రూణాం ప్రతాప అత్యంతం విజృంభతే ఇదనీ అయం మహారాజ స్వస్య ఖడ్గం స్వీకృత్య తేన ఖడ్గేన శత్రూణాం ప్రతాపరూపం అగ్నిం సర్వమపి నిర్వాపితం శత్రువులు సర్వాన్ మారితవాన్ ఇది త్రిజగతి నామ త్రిషు అపి లోకేషు జ్వలిత యహ జ్వలన్నాసి తాదృశ ప్రతాప కేషాం ప్రతాప ఇది చేత్ త్రిపూణాం ప్రతాప త్రిపూణాం సకల అపి ప్రతాప అనేన నిర్వాపిత కై ఇది చేత్ ధారాజలై ఖడ్గస్య ధారా అస్తి కిల తత గతైన జలై ఖడ్గస్య ధారాజలై శత్రూణా ప్రతాపరూప అగ్ని నిర్వాపిత కథం ఇది ఉల్లాస్య కాల కరవాల మహాంభువాహం కాలరూపం కరవాల కరవాలం నామ ఖడ్గ ఖడ్గం ఉల్లాస్య ఖడ్గం ఉల్లాస ఇది నామ కన్నడ భాషాయా ఝరపి చూడు ఖడ్గం ఉల్లాస్య ఉల్లాస్య కాల కరవాలం तद्कीदृशम् इति चेत् महाम्बुवाहम् अत्यन्त किम् अम्बुवाहः इव अस्ति. अम्बुवाहः नाम मेघः. तद्वत् तत्र तथा वर्धमान वर्तमान उल्लास्य कालकरवालमहाम्बुवाहम् दैवेन जरठोर्जितगर्जितेन. स महाराजः अत्यन्तं कठोरं सिंहगर्जनमपि कुर्वन् तेन जरठ नाम अत्र अत्यन्तं कठिनं घोरम् इत्यर्थः. तादृशं गर्जनं कुर्वता महाराजेन सः किं कृतवान् इति चेत् स्वस्य पराक्रमेण शत्रूणां तेषां पराक्रमम् उपशामितवान् इति शास्त्रम्. शत्रूणां यः प्रतापः अस्ति तं प्रतापं निर्वापितवान् इति एकः. अनन्तरं तस्य द्वितीयोपि अर्थः भवति इन्द्रः कदाचित् किं कृतवान् इति चेत् इन्द्रः सः धाराजलैः त्रिजगति किं कृतवान् इति चेत् उष्णस्य जलक्षामस्य च निवारणं प्रार्थितवान् केन इति चेत् सः महता धाराजलैः मेघस्य जलैः इन्द्रः किं कृतवान् इति चेत् लोके या जलक्षामः आसीत् तत्सर्वमपि सः निर्वापितवान्. सः उल्लास्य कालकरवालमहाम्बुवाहम् इति वदति चेत् कृष्णवर्णं महामेघं कालवत् कृष्णवर्णम् अम्बुवाहं मेघं प्रदर्श्य सः उल्लास्य नाम प्रदर्श्य इत्यर्थः. तादृशमेघं प्रदर्श्य सः अत्यन्तम् अधिकं शब्दं कुर्वन्नस्ति मेघः. तादृशेन मेघेन सः ऋपूणाम् अत्र नाम ऋपूणां नाम शत्रूणां शत्रूणाम् अत्र किमिति चेत् लोके या क्रीडा आसीत् किं तेजः अनन्तरं जलक्षामम् इति यदासीत् तत् तत्सर्वमपि सः किं कृतवान् इति चेत् धाराजलैः नाम मेघस्य जलैः तत्सर्वं शमितवान् इति अन्यः अर्थद्वये. प्रथमः अर्थः महाराजः स्वपराक्रमेण शत्रूणां पराक्रमं नाशितवान् इति. द्वितीयः अर्थः देवेन्द्रः मेघजलैः भूलोके या जलक्षामः आसीत् तत्सर्वं निर्माणं अत्र अर्थद्वयम् अभवत्. उपमानं वा उपमेयं वा किञ्चित् अर्थद्वयम् इदानीं दृश्यते. अत्र वाक्यस्य असम्बद्धार्थाभिदायकत्वं मा पशांसि इति अर्थद्वयमस्ति किन्तु तयोः परस्परं सम्बन्धः कः. अत्र अर्थैव न ज्ञायते इति पृच्छति चेत् एवम् अन्यथा भावः मा पशांसि यथा न प्रवर्तेत तथा भवतु इति कृत्वा प्राकरणिक अप्राकरणिकयोः उपमानोपमेयः कल्पनीयः. किं करणीयमिति चेत् एकः अर्थः उपमानरूपेण तिष्ठति अन्यः उपमेयरूपेण तिष्ठति इति तयोः उपमानोपमेयभावः किं करणीयः इति. अतः तयोर्मध्ये यदा उपमानोपमेयभावः चिन्त्यते तदा अत्र अलङ्कारः कः अलङ्कारः उपमालङ्कारः अस्ति. अत्र उपमालङ्कारः अतः कस्य उदाहरणम् इति चेत् अलङ्काररूपस्य अनुरणरूप ध्वनेन उदाहरणम् तदपि शब्दशक्तिमुखः. शब्दशक्तिः नाम कः इति चेत् अत्र प्रयुक्ताः शब्दाः एव भवेत् तं शब्दं परिवर्तयति चेत् अन्यः अर्थः न सन्ति. इदानीं कालकरवाल इत्यादि शब्दस्य स्थाने कृष्णखड्ग इति किमपि वदति चेत् तस्य शब्दशक्तिमूलते शब्दशक्तिमूलविरोधावासध्वनिः. इदानीं पूर्णम् उपमाध्वनिः उपमालङ्कारः ध्वन्यते इत्यस्य उदाहरणम्. विरोधावासालङ्कारोऽपि कुत्रचित् मन्यते तत्र उदाहरणं. तत्र पुनः सभङ्गे पदे नाम शब्दस्य भङ्गः कर्तुं शक्यते तादृशे उदाहरणं भवति. सिग्मरुचिरप्रतापो
सिग्मरुचिरप्रतापो
विधुरनिशाकृद्विभो
विधुरनिशाकृद्विभो
मधुरनीलः
मधुरनीलः मतिमानतत्त्ववृत्तिः प्रतिपदपक्षाग्रणी
विभाति भवान् हे राजन् त्वं विभाति त्वं शोभते शोभते. कीदृशः त्वं शोभते इति चेत् सिग्मरुचिरप्रतापः ಸಿಗ್ಮರುಚಿರ ಪ್ರತಾಪ. ಸಿಗ್ಮರುಚಿ ನಾಮ ವಸ್ತುತಃ ಅಗ್ನಿ ತಾಂತ ರುಚಿರ ಪ್ರತಾಪ. ಸಿಗ್ಮರುಚಿರ ಪ್ರತಾಪ ಶತ್ರೂಣ ದೃಷ್ಟಿಯ ದಹತಿ ತಾದೃಶ ಅನ್ಯಾಂ ದೃಷ್ಟಿಯ ರುಚಿರ ಸಿಗ್ಮ ರುಚಿರ ಪ್ರತಾಪ ತಾದೃಶ ಭವ. ಅನಂತರ ವಿದುರ ನಿಶಾಕೃತ್ ವಿದುರ ಶಬ್ದಕ್ಕೆ ವೈರೀತ್ಯತೆ ಏಕ ಅರ್ಥ ವಿದುರ ನಾಮ ವೈರೀತ್ಯ ವೈದುರ ವಿದುರ ನಾಮ ನಿಶಾಕೃತ್ ರಾತ್ರಿ ದದಾತಿ ಕಷ್ಟಂ ದದಾತಿ ಅಂತ ಅತಃ ವಿದುರ ನಿಶಾಕೃತ್. ಅನಂತರ ಮಧುರ ಲೀಲ ತವ ಲೀಲಾ ಸರ್ವಾ ಅಪಿ ಮಧುರಾ ಸಂತಿ ತಾದೃಶ ಮಧುರ ಲೀಲ. ಅನಂತರ ಮತಿಮಾನ ತತ್ವವೃತ್ತಿ ಭವತಃ ಮತಿ ಭವತಃ ಮಾನ ಇತ್ಯೇತ ಸರ್ವಮಪಿ ಅತ್ಯಂತಂ ತತ್ವಪೂರ್ಣಮಸ್ತಿ ತತ್ವಯುಕ್ತಮಸ್ತಿ ಅತಃ ಮತಿಮಾನ ತತ್ವವೃತ್ತಿ ತ್ವಂ ಅಸಿ. ಪ್ರತಿಪದ ಪಕ್ಷಾಗ್ರಣೀ ಪ್ರತಿಪದ ನಾಮ ವೈರಿಣ ತತ್ರ ಸರ್ವೇ ವಿಷಯ ಪ್ರತಿಪದಮಿ ಪ್ರತಿಪದ ನಾಮ ಪ್ರತ್ಯೇಕ ಪದೇ ಅಗ್ರಿಣಿ ಸ್ವಪಕ್ಷ ವಿಷಯ ಭವಾನ್ ಅಗ್ರೇ ತಿಷ್ಟತಿ. ಪ್ರತಿಪದ ಸ್ವಪಕ್ಷ ವಿಷಯ ಅಗ್ರಣಿ ನ್ಯಾಯಕ ರೂಪಾಯಿತ್ವೇನ ಭವಾನ್ ತಿಷ್ಟತಿ ತಾದೃಶಃ ಭವಾನ್. ಏಕ ಮಹಾರಾಜ ತಸ್ಯ ಮಹಾರಾಜಸ್ಯ ಕಾನಿಚಿತ್ ವಿಶೇಷಣಾನಿ ದತ್ತಾನಿ ಸಂತಿ ಸಿಗ್ಮರುಚಿರ ಪ್ರತಾಪ ವಿದುರ ನಿಶಾಕೃ ವಿಭೋ ಸಂಬೋಧನ ಮಧುರ ಲೀಲ ಮತಿಮಾನ ತತ್ವವೃತ್ತಿ ಪ್ರತಿಪದ ಪಕ್ಷಾಗ್ರಣಿ ಇತಿ ವಿಶೇಷಣಾನಿ ದತ್ತಾನಿ ತಾದೃಶಃ ತ್ವಂ ವಿಭಾತಿ ಇತ್ಯುಕ್ತವಾನ್. ಕಸ್ಯ ಉದಾಹರಣ ಚಿತ್ರಂ ಸಬಂಧ ಇತ್ಯುಕ್ತಮಸ್ತಿ ಇದಾನಿ ಬಗ್ಗಃ ಪುತ್ರ ಅಭವತ್ ಶಬ್ದಸ್ಯ ಇತಿ ಪೃಷ್ಟ ಏಕ ಏಕ ಅರ್ಥ ದ್ವಿತೀಯ ಅರ್ಥ ಇದಂ ಅರ್ಥಂ ವದಾಮಃ ಚೇತ್ ತತ್ರ ಬಂಧಃ ಕರಣೀಯ ಕಥಂ ಇತಿ ಚೇತ್ ಅಯಂ ರಜಾ ರಾಜ ಸಿಗ್ಮ ರುಚಿಃ ಅಪಿ ಅಪ್ರತಾಪಃ. ಸಿಗ್ಮ ರುಚಿಃ ನಾಮ ಸೂರ್ಯ ಸಿಗ್ಮ ರುಚಿಃ ಸೂರ್ಯಸ್ಯ ಏಕಂ ಪರ್ಯಾಯವಾಚಕ ಶಬ್ದ ಕರೋತಿ ಸಿಗ್ಮ ರುಚಿಃ. ಸಿಗ್ಮ ರುಚಿರಪಿ ಅಯಂ ಅಪ್ರತಾಪ ಸೂರ್ಯೋಪಿ ನ ದಹತಿ ಕರ್ತ ಜನಿ ಆಕಾಶೆ ವಿದ್ಯಮಾನ ಸೂರ್ಯ ಸ ಸೂರ್ಯ ಅಸ್ತಿ ಕಿಂತು ಸ ಅತೀವ ಕಠೋರ ಪ್ರತಾಪ ಎಷ್ಟ ಮಹಾರಾಜ ಸಿಗ್ಮರುಚಿರಪಿ ಅಪ್ರತಾಪ ನ ದಹತಿ ಸರ್ವ ಪ್ರೀತಿಯ ಪಶ್ಯತಿ ಅತಃ ಸಿಗ್ಮರುಚಿ ಅಪ್ರತಾಪ ಏನು ವಿಭಾಗ ಕರಣೀಯ ಪೂರ್ವತನ ಅರ್ಥಕಥನೆ ಶಬ್ದಾನ ವಿಭಾಗ ನ ಕೃತ ಆಸೀತ್ ಭಂಗ ನ ಕೃತ ಆಸೀತ್ ಇದಾನಿ ಬಂಗಾಳಿಗೆ ಸಿಗ್ಮರುಚಿ ಅಪ್ರತಾಪ. ವಿಧು ಅನಿಶಾಕೃತ್ ವಿಧು ಭಗವಾನ್ ಚಂದ್ರ ಕಿಂತು ಅನಿಶಾಕೃತ್ ಚಂದ್ರ ನಿಶಾಕರ ನಿಶಾಕೃತ್ ರಾತ್ರಿ ಕರೋತಿ ಚಂದ್ರ ಯದ ಆಗತಿ ತದಾ ರಾತ್ರಿ ಅತ ಚಂದ್ರ ನಿಶಾಕರ ಭವಾನ್ ವಿಧು ಅಸ್ತಿ ಕಿಂತು ನಿಶಾಕರ
ಅಸ್ತಿ
ನಿಶಾಕರ ನಿಶಾಕೃತ್ ಕರೋತಿ ನಿಶಾಂ ಕರೋತಿ ನಿಶಾಕರ. ಸೊ ವಿಧು ಅನಿಶಾಕೃತ್ ವಿಭೂತಿ ಸಂಬೋಧನ ಅನಂತ ಸಂಬೋಧನ ಮಧು ಅಲೀಲ ಭವಾನ್ ಮಧು ಮಧು ನಾಮ ವಸಂತ ಕಾಲ ಕಿಂತು ಲೀಲಾವಾನ್ ನಾಸ್ತಿ ಬಹು ಲೀಲಾ ಕರೋತಿ ಗಂಭೀರ ಇದೆ ಮಧು ಅಸ್ತಿ ಕಿಂತು ಅಲೀಲ ಮಧುರ ಲೀಲ. ಅನಂತರ ಮತಿಮಾನ್ ಅತತ್ವ ವೃತ್ತಿ ಮತಿಮಾನ್ ನಾವು ಅತ್ಯಂತ ಬುದ್ಧಿಮಾನ ಮತಿಮಾನ್ ಕಿಂತು ಅತತ್ವ ವೃತ್ತಿ ತತ್ವ ನಿಷ್ಠಾ ವಿರಹಿತ ಇದು ವದತಿ ಕದಾಚಿತ್ ಮಹಾರಾಜ ಸ್ತುತಿ ಚಿಂತೆಯತಿ ಕಿಂತು ಇಂಧನಮಿ ಬರಹತಿ ಸಹ ಭವಾನ್ ಮತಿಮಾನ್ ಅಸ್ತಿ ಕಿಂತು ಅತತ್ವ ವೃತ್ತಿ ಅತತ್ವ ನಿಷ್ಠಾ ನಾಸ್ತಿ. ಅಂತ ಪ್ರತಿಪದ ಪಕ್ಷಾಗ್ರಣಿ ಪ್ರತಿಪದ ನಾಮ ಪ್ರತಿಪತ್ ನಾಮ ಪ್ರತಿಪದ ತಿಥಿ ಹಿಂದಿ ಪ್ರತಿಪತ್ತಿ ತಿಥಿ ಅಸ್ತಿ ಕಿಂತು ಪ್ರತಿಪದ ಅಪಕ್ಷಾಗ್ರಣಿ ಪಕ್ಷ ಭವತಿ ಕಿಲ ಶುಕ್ಲಪಕ್ಷ ಕೃಷ್ಣಪಕ್ಷ ಪಕ್ಷಸ ಆರಂಭೆ ಕಾತಿಥಿ ಅಸ್ತಿ ಪ್ರತಿಪತ್ ಭವಾನ್ ಪ್ರತಿಪತ್ ಕಿಂತು ಪಕ್ಷಸ ಅಗ್ರಣಿ ನಾಸ್ತಿ ಅತ್ರ ಪ್ರತಿಪತ್ ಇತ್ಯಸ್ಯ ಅರ್ಥ ಅರ್ಥ ಕಹ ಇದೆ ಅದರ ನಲಿಕಿತ ಪ್ರತಿಪತ್ತೇದೇ ಆದ್ಯ ನಾಸ್ತಿ ಅಂತ ಲಿಖಿತ ಸರಿ ಸರಿ ನಾಸ್ತಿ लिखितवान् द्रष्टव्यं तस्य शब्दस्य अर्थः न लिखितः. प्रतिपत्ति पक्षाद्रयिः नास्ति, पक्षस्य आदौ तिष्ठति इति नास्ति. एवं द्वितीयवारं यः अर्थः वर्णितः अस्ति तत्र सर्वत्रापि भङ्गः पदयोः भङ्गः कृतः. अतः सभङ्गस्य उदाहरणम् अत्र एकैकस्य पदस्य द्विपदस्य विरोधाभासः. पदद्वयं कुर्मः चेत् विरोधाभासः, अतः विरोधाभासः अत्र विद्यते. विरोधावसर्गिणिः एतत् उदाहरणम् अनन्तरम् अभङ्गपदे यथा पदस्य भङ्गः न करणीयः तादृशस्य उदाहरणम्
अमितस्तमितस्प्राप्तैः
भवान् अमितः. कीदृशः अमितः इति चेत् समितः प्राप्तैः उत्कर्षैः अमितः. समित् शब्दस्य युद्धम् इति एकः अर्थः समित्. अतः समितः नाम युद्धान् इत्यर्थः. पञ्चमेव समितः प्राप्तैः उत्कर्षैः, युद्धे यं जयं प्राप्तवान् अस्ति तस्मात् कारणात् युद्धे प्राप्तैः उत्कर्षैः जैः जयैः भवान् अमितः अस्ति. युद्धे एतेन महत् प्राप्तमस्ति, अतः अस्य ऐश्वर्यादीनां मितिरेव नास्ति, अमितः जातः. अतः समितः प्राप्तैः उत्कर्षैः अमितः अस्ति. हे प्रभो त्वं हर्षदा हर्षं ददाति, हर्षददाति तादृशः. अनन्तरम् अहितः सहितः साधुयशोभिः असतामति. अनन्तरं भवान् कीदृशः अस्ति इति चेत् अहितः सहितः असतां नाम शत्रूणां साधुयशोभिः सहितः अस्ति, असताम् अहितः. शत्रूणाम् अहितं जने तथैव यशसा युक्तः. अतः असताम् अहितः अस्ति, साधुयशोभिः सहितः. असतां नाम दुष्टानां शत्रूणाम् इत्यर्थः. तेषां तु अहितः. अनन्तरं यशोभिः कीर्तिभिः सहितः अस्ति. वर्णनं कृतवान् अत्र सबन्धपूर्वतनपद्यानि. अत्र भङ्गः नास्ति, किम् अमितोपि अमितः, अमितः अस्ति अमितः, तथैव अहितः अस्ति सहितः. अमितः नाम हितरहितः, पुनः अग्रिमं समितः हितसहितः इत्यर्थः. तत् हितसहितः हितरहितः इति वदति. अतः विरोधभासः अवलोक्यते. एतत् उदाहरणम् एतत् सर्वं कस्य अभवत् उदाहरणं? शब्दशक्तिमूलस्यैव. शब्दशक्तिमूलस्य सभङ्ग अभङ्ग विरोधावासालङ्कारस्य उदाहरणं. शब्दशक्तिमूलव्यतिरेकस्मैः व्यतिरेक अलङ्कारः यत्र ध्वन्यते निरुपादानसंहारम्
निरुपादानसंहारम्
अभिस्तामेव तन्वते
अभिस्तामेव तन्वते
जगच्चित्रं नमस्तस्मै
जगच्चित्रं नमस्तस्मै
कलाश्लाघ्याय शूलिने
कलाश्लाघ्याय शूलिने
शूलिने नमः शूलिन् सः तस्मै शूलिने नमः. सः कीदृशः इति चेत् ईश्वरः एकः चित्रकारः. ईश्वरः सर्वं चित्रं लिखति, जगतः चित्रं लिखति. इदानीम् अन्यः कश्चन चित्रकारः अस्ति चेत् चित्रं लेखितुं तस्य किं किम् आवश्यकं? संभारः आवश्यकः, उपादानसंभारः. संभारः नाम वस्तूनि इत्यर्थः. क्यान्वास् आवश्यकं, वर्णः आवश्यकः, सूर्यः आवश्यकः, उपादानसंभारः तथैव भित्तिः अपेक्षिता. भित्तिः क्यान्वास् इति चिन्त्यते. लेखितुं काचित् भित्तिः अपेक्षिता, क्यान्वास् अपेक्षितं भवति. तादृशः चेत् अन्यः चित्रकारः. ಈಶ್ವರ ಆಶ್ರಿತ ನಿರುಪಾದಾನ ಸಂಭಾರಂ ಉಪಾದಾನ ಸಂಭಾರ ಉಪಾದಾನ ಸಂಭಾರ ಶಬ್ದಕ್ಕೆ ಸಾಧನಾದಿ ಸಾಧನಾದಿ ತಾನಿ ಅಪಿ ನ ಸಂತೆ ಕುತ್ರ ರಚಯತೆ ಅಭಿತ್ತಾವೇವ ಲೇಖಕರು ಭಿತ್ತಿಯ ಅಭಿವೃದ್ಧಿ ನಾಸ್ತಿ ಅಭಿತ್ತಾವೇವ ತನ್ವತೆ ತನ್ವತೆ ನಾಮ ನಿಕಟೆ ಕರ್ತ ತನ್ವತೆ ತನೋತಿ ರಚಯತಿ ತಸ್ಮೈ ತನ್ವತೆ ವಿತ್ತಾವೇವ ತನ್ವತೆ ಕಿಂ ಲಿಖತೆ ಜಗತ್ ಚಿತ್ರ ಲಿಖತಿ ಜಗತ್ ಇತ್ಯೇತ ಚಿತ್ರ ಲಿಖತಿ ಕಿಂ ವದಾಮಃ ಇಹ ಪ್ರಪಂಚ ಸರ್ವೋಪಿ ಭಗವತಃ ಸೃಷ್ಟಿ ಇತಿ ವದಾಮಃ ಭಗವಾನ್ ಚಿತ್ರ ಲಿಖತೆ ತದ್ವತ್ ಜಗತ್ ಪ್ರವರ್ತತೆ ತಜ್ಜಗತ್ ರೂಪಂ ಚಿತ್ರಂ ಸಹ ಲಿಖತಿ ಕುತ್ರ ಇದ್ಯೇ ಅಭಿತ್ತಾವೇವ ಸಾಧನಾನಿ ಕಾನಿ ಇತಿ ಚೇತ್ ಸಾಧನಾನಿ ಏವ ನಾಸ್ತಿ ಚಿತ್ರಾಣಿ ಏವಂ ಚಿತ್ರಂ ಲಿಖತೆ ಅಂದರೆ ಕಲಾ ಶ್ಲಾಘ್ಯಾಯ ಏತಾದೃಶ ಕಲೆಯ ಸಹ ಅತೀವ ಶ್ಲಾಘ್ಯ ಅಸ್ತಿ ತಸ್ಮೈ ಕಲಾ ಶ್ಲಾಘ್ಯಾಯ ಶೂನ್ಯತೆ ನಮಃ ಅತ್ರ ವ್ಯತಿರೇಕ ಅಲಂಕಾರ ಕಿಮರ್ಥಂ ಇತಿ ಚೇತ್ ಅನ್ಯ ಚಿತ್ರಕಾರ ಚೇತ್ ಅತ್ರ ಏತಾನಿ ಸರ್ವಾಣಿ ಅವಗತಾನಿ ಭಗವತಃ ಈಶ್ವರಸ್ಯ ತು ಏತದ್ ಕಿಮಪಿ ನಾಪೇಕ್ಷಿತಂ ನಾಪೇಕ್ಷಿತಂ ಅತಃ ತಸ್ಮಾತ್ ಏತಸ್ಯ ವೈಶಿಷ್ಟ್ಯಂ ವಿಚರಿಸ್ತೇ ಅತಃ ವ್ಯತಿರೇಕ ವ್ಯತಿರೇಕ ಅಲಂಕಾರ ಅತ್ರ ವ್ಯತಿರೇಕ ಅಲಂಕಾರ ಯಸ್ಯಾಪಿ ಬ್ರಾಹ್ಮಣ ಸಮನ್ವಯೇನ ಅಲಂಕಾರಃ ಅತ್ರ ಅಲಂಕಾರಃ ಅಲಂಕಾರಃ ಧ್ವನ್ಯತೆ ವಸ್ತುತಃ ಅಲಂಕಾರಃ ಯಃ ಅಸ್ತಿ ಅಲಂಕಾರಃ ಕಿಂ ಕರೋತಿ ಇತಿ ಚೇತ್ ಶರೀರಸ್ಯ ಅಲಂಕರಣಂ ಕರೋತಿ ಅಲಂಕ್ರಿಯತೆ ಅನೇನ ಇತಿ ಅಲಂಕಾರ ಅತ್ರ ತು ಸಹ ಅಲಂಕಾರಃ ಅತ್ರ ಆತ್ಮಭೂತಃ ಭವತಿ ಇಂ ಕಾವ್ಯಪುರುಷಸ್ಯ ಚಿತ್ರಂ ಪಶ್ಯಾಮಶ್ಚೇತ್ ಆತ್ಮ ಅಸ್ತಿ ಕಿಲ ಆತ್ಮಾನಂ ಶರೀರಂ ಆಭರಣಾನಿ ಸರ್ವಾಣಿ ಅಲಂಕುರುವಂತೆ ಅಲಂಕ್ರಿಯತೆ ಇತಿ ಅಲಂಕಾರ ಕಿಂತು ಅತ್ರ ಅಲಂಕಾರ ಇವ ಧ್ವನ್ಯತೆ ಇತಿ ಕೃತ್ವಾ ಅಲಂಕಾರ ಇವ ಆತ್ಮ ಅಸ್ತಿ ವಸ್ತುತಃ ಪುನಃ ಸ ಅಲಂಕಾರ ತಸ್ಯ ಅಲಂಕಾರ ಸಂತತಂ ಇತಿ ಚೇತ್ ಏವಂ ಯದಾ ಭವತಿ ತಸ್ಯ ಅಲಂಕಾರಸ್ಯ ಅಲಂಕಾರತ್ವಂ ನಾಸ್ತಿ ಇತಿ ತಥಾಪಿ ಪೂರ್ವಂ ಅಲಂಕಾರ ಆಸೀತ್ ಇತಿ ಕಾರಣತ ಅಲಂಕಾರ ಇತಿ ನಾಸ್ತಿ ಕಥಂ ಇತಿ ಚೇತ್ ಬ್ರಾಹ್ಮಣ ಶ್ರಮಣ ನ್ಯಾಯೇನ ಶ್ರಮಣಃ ನಾಮ ಸನ್ಯಾಸಿ ಕರ್ತ ಕಶ್ಚನ ಸನ್ಯಾಸಂ ಸ್ವೀಕರೋತಿ ಚೇತ್ ತದನಂತರಂ ತಸ್ಯ ಕಾಪಿ ಜಾತಿ ನ ಭವತಿ ಸರ್ವ ಪರಿತ್ಯಜ್ಯ ಸನ್ಯಾಸಂ ಸ್ವೀಕರೋತಿ ಜಾತಿ ತ್ಯಕ್ತ ಜನ್ಮ ಪರಿತ್ಯಕ್ತಂ ಇತರ ಸರ್ವೇಷು ಪರಿತ್ಯಕ್ತ ಕಿಮಪಿ ನಾಸ್ತಿ ಇತಿ ಕೃತ್ವಾ ಸ ಸನ್ಯಾಸಿ ಭವತಿ ಇದು ಇದಾನಿ ಕಿಮಸ್ತಿ ಯದ್ಯಪಿ ಸನ್ಯಾಸಿ ಅಸ್ತಿ ಸಹ ಪುನಃ ಇದಾನಿ ಏಷಾ ಬ್ರಾಹ್ಮಣರ ಸನ್ಯಾಸಿ ಏಷಾ ಏತೇಷಾಂ ಸನ್ಯಾಸಿ ಏತೇಷಾಂ ಸಮಾಜಸ್ಯ ಸನ್ಯಾಸಿ ಇತಿ ಇದಾನಿ ವ್ಯವಹಾರ ಅಸ್ತಿ ವಸ್ತುತಃ ಸನ್ಯಾಸಿ ಚೇತ್ ತಥಾ ನಾಸ್ತಿ ಬ್ರಾಹ್ಮಣ ಶ್ರಮಣ ಯದ್ಯಪಿ ಸಹ ಇದಾನಿ ಶ್ರಮಣ ಅಸ್ತಿ ಸನ್ಯಾಸಿ ಅಸ್ತಿ ತಥಾಪಿ ಪೂರ್ವಂ ಬ್ರಾಹ್ಮಣ ಆಸೀತ್ ಇತಿ ಕೃತ್ವಾ ಬ್ರಾಹ್ಮಣ ಶ್ರಮಣ ತದ್ವದೇವ ಪೂರ್ವ ಅಲಂಕಾರ ಆಸೀತ್ ಇತಿ ಕಾರಣತ ಅಲಂಕಾರ ಕಥ್ಯತೆ ವಸ್ತುತಃ ಅಲಂಕಾರ ಅಲಂಕಾರ್ಯ ಭವತಿ ಯದಾ ಏವಂ ಬಂಧ್ಯತೆ ತದಾ ಸ ಅಲಂಕಾರ್ಯ ಭವತಿ ಕಥಂ ಇತಿ ಬ್ರಾಹ್ಮಣ ಕಥಮ ಶಬ್ದಶಕ್ತಿ ಮೂಲ ವಸ್ತು ಧ್ವನಿ ಯಾನಿ ಏತಾನಿ ಉದಾಹರಣಾನಿ ಯಾನಿ ದರ್ಶಿತಾನಿ ತತ್ರ ಸರ್ವತ್ರ ಅಲಂಕಾರ ಧ್ವನಿತಃ ಉಪಮಾ ವ್ಯತಿರೇಕ ಇತ್ಯಾದಿ ವಸ್ತು ಕೇವಲ ಏಕಂ ವಸ್ತು ಧ್ವನ್ಯತೆ ಪಟಿಕ ನಾತ್ರ ಪ್ರಸ್ತರ ಮತ್ತೆ ಅತ್ರ ಪ್ರಸ್ತರ ಇದೆ ಪ್ರಸ್ತರ ಇದೆ ಪ್ರಸ್ತರ ಮತ್ತೆ
ಪಟಿಕ ನಾತ್ರ ಪ್ರಸ್ತರ ಮತ್ತೆ
ಮನಾಪ್ರಸ್ತರ ಸ್ಥಳೇ ಗ್ರಾಮೇ
ಮನಾಪ್ರಸ್ತರ ಸ್ಥಳೇ ಗ್ರಾಮೇ
ಉನ್ನತ ಪಯೋಧರಂ ಪ್ರೇಕ್ಷ್ಯ
ಉನ್ನತ ಪಯೋಧರಂ ಪ್ರೇಕ್ಷ್ಯ
ವಸತಿ ತದಾವಸ
ಯದಿ ವಸತಿ ತದಾವಸ
ಯಸ್ಮಿ ಲಾಸಾಂತಿ ಗ್ರಾಮೇ ಸ ಅಸಮೀಚೀನಾನಿ ವದಂತಿ ಅಸ್ತಿ ಅಸ್ಮಿನ್ ಗ್ರಾಮೇ ಶಯನಾರ್ಥಂ ವಸ್ತೂನಿ ತಾದೃಶಾನಿ ಕಾನಿ ಅಪಿ ನ ಸಂತಿ ಪ್ರಸ್ಥರಪ್ರಾಯಃ ಗ್ರಾಮ ಅಸ್ತಿ ಗ್ರಾಮೇ ಸರ್ವಂ ಶಿಲಾಮೇ ಅಸ್ತಿ ತಾದೃಶಮಸ್ತಿ ಇದನ್ನು ಆಕಾಶಂ ಪಶ್ಯತಿ ಚೇತ್ ಇದಾನೀ ಮೇಘಾಃ ಆಗತಾಃ ಸಂತಿ ಅಥ ವೃಷ್ಟಿರಪಿ ಭವಿತುಮರ್ಹತಿ ಏವಮಸ್ತಿ ಅಥ ವಾಸಂ ಕರ್ತುಮ್ ಇಚ್ಛತಿ ಚೇತ್ ವಾಸ ವಾಸಂ ಕರೋತು ವಸ್ತುಮ್ ಇಚ್ಛತಿ ಚೇತ್ ವಸ ಇತಿ ವದಂತಿ ವಸತಿ ಚೇತ್ ವದ ವಸ್ತುತಃ ಪಯೋಧರ ಶಬ್ದ ಪ್ರಯುಕ್ತ ಅಸ್ತಿ ಇತಿ ಕಾರಣತಃ ಅನ್ಯೋಪಿ ಅರ್ಥ ಕುರತಿ ಇಲ್ಲಿ ಭವಾನ್ ಸ್ಥಾಪಿ ತಿಷ್ಟತು ಇತಿ ಅನ್ಯಸ್ಯ ಅರ್ಥಸ್ಯ ಪೂರ್ಣಂ ಭವತಿ ಅತ್ರ ಯದಿ ಉಪಭೋಗ ಕ್ಷಮೋತಿ ತದಾ ಆತ್ವಾ ತಿಷ್ಠ ಇತಿ ಅನ್ಯ ಅರ್ಥ तो एषः द्वितीयः अर्थः अलङ्कारः न एकं वस्तु तावत् यदि भवान् स्थातुम् इच्छति तर्हि तिष्ठतु इति द्वितीयः अर्थः भवति तत् केवलम् एकं वस्तु तद् शब्दशक्तिमूलं किमर्थमिति चेत् पयोधनशब्दः प्रयुक्तः मेघः अस्ति इति वदति चेत् द्वितीयस्य अर्थस्य पुराणं न भवति अतः शब्दशक्तिमूलस्य उदाहरणम् अग्रे शनिरशनिश्च
शनिरशनिश्च
समुच्चैर्निहन्ति
समुच्चैर्निहन्ति
कुप्यति नरेन्द्र यस्मै त्वम्
कुप्यति नरेन्द्र यस्मै त्वम्
यत्र प्रसीदति पुनः
यत्र प्रसीदति पुनः
सभाद्युदारो अनुदारश्च
सभाद्युदारो अनुदारश्च
अत्र एकः महाराजमुद्दिश्य वदन्ति हे नरेन्द्र त्वं यस्मै कुप्यति भवान् कस्यचित् विषये कोपं करोति चेत् त्वं यस्मै कुप्यति तस्य किं भवति इति चेत् शनिः अशनिश्च उच्चैः निहन्ति तस्य किं भवति इति चेत् साक्षात् शनिः तं गृह्णाति चाडयति द्वितीयम् अशनिः गृह्णाति कः अर्थः शनिः गृहीतवान् इत्युक्ते तस्य परं दुर्दश अशनिः अशनिः नाम किम् अशनिपातः भवति किल सिडिल् अशनिः पतति चेत् जनः किं भवति पतति मृतः भविष्यति अतः तस्य शनिदशापि भविष्यति अशनिः तं गृह्णाति शनिरपि गृह्णाति अशनिरपि गृह्णाति अनन्तरं यत्र त्वं प्रसीदति सः उदारः भवति यद्देशे भवान् प्रसन्नः भवति सः अनुक्षणम् उदारः भवति इत्युक्ते तस्य समृद्धिः भविष्यति तथैव सः अनुदारः अपि भवति अनुदारः नाम अनुसृत्य आगता दाराः यस्य सः अनुदारः तस्य झटिति तस्य धनादिकं सर्वं लभ्यते कन्यापि लभ्यते अनुक्षणं विवाहोऽपि भविष्यति अतः स अनुदारोऽपि भविष्यति यस्य विषये भवतः अनुग्रहः अस्ति स अनुक्षणम् उदारोऽपि भवति अनुदारोऽपि भवान् यस्य विषये कोपं करोति सः झटिति शनिरन्तं गृह्णाति अशनिरपि गृह्णाति यस्य विषये भवान् प्रसादं करोति सः उदारोऽपि भवति अनुदारोऽपि अत्र विरुद्धौ अपि तदनुवर्तनार्थम् एकं कार्यं कुरुतः इति व्यत्ययेन व्यक्रियते इति विरुद्धवर्तौ तथापि तव अनुवर्तनार्थम् एकं कार्यं कुरुतः अत्र एतद् वस्तु तावद् वक्तव्यव अलङ्कारः इति नास्ति वक्तुमात्रं योज्यते तत्समयः हरि ओम् कियत्परिणम् पुस्तकं समाप्तम् अन्यत् पुस्तकमस्ति वा गृहम् किञ्चित् आरभामहे तर्हि चतुर्थ उल्लासः एवं शब्दशक्तिर्भवस्य उदाहरणं दर्शितम् अभवत् अस्ति वा अग्रे अर्थशक्तिर्भवस्वरूपं तद्धेयाश्च किञ्चित् पठामः अर्थशक्तिभ्रो अर्थशक्तिभ्रोत्यर्थः
अर्थशक्त्यभ्रोत्यर्थः ञ्जगसम्भवीत्वतः प्रौढोक्तिमात्रासिद्धो वा कवेश्चेनोद्यतस्य वा वस्तुवालङ्कृतिर्वेदि
षड्वे
लोको व्यनक्ति यत्
वस्त्वलङ्कारमथवातेन अयं द्वादशात्मकः
अयं द्वादशात्मकः
अत्र पुनः तद् समग्र एतस्य अर्थ एव अत्र अस्ति पठामः अर्थः द्विविधः इदं प्रथमकल्पितः स्वतः सम्भवी चेत् इदं प्रथमम् इति शास्त्रं कल्पितः स्वतः सम्भवी चेत् इत्युक्ते किमपि एकं वाक्यं वदति कस्यचित् वाक्यस्य अर्थः स्वयमेव चिन्त्यते स्वयं सम्भवी भवति कुत्रचित् अर्थः कविना कल्पितः भवति महाराजस्य कीर्तिः सर्गङ्गाम् अवगातु उपमालङ्कारस्य प्रथमम् उदाहरणमस्ति किल किन्तु उपमा यत्र
सादृश्यते कीर्ति स्वर्गङ्गाम् अवगास्ते
हे महाराजन् तव कीर्तिः गत्वा गङ्गायां स्नानं करोति कीर्तिः एवं रूपं प्राप्य गत्वा स्नानं करोति वा न कविकल्पितः कुत्रचित् स्वतः सम्भवति सूर्यः उदेति कमलं विकसति स्वतः सम्भवति कुत्रचित् स्वतः सम्भवी अर्थः भवति कुत्रचित् कवि कल्पितः अर्थः भवति अतः इदं प्रथमं कल्पितः स्वतः सम्भवी चेत् अर्थः निमित्तः तत्र स्वतः सम्भवी न केवलं वणितमात्रनिष्पन्नः यावत् बहिरपि औचित्येन सम्भाव्यमानः बहिरपि औचित्यात् सिद्ध्यति तादृश कविना प्रतिभामात्रेण बहिः असन्नपि निर्मितः इत्युक्ते वस्तुतः बहिः नास्ति तथापि कवि स्वप्रतिभया निर्मितवान् भवति तादृशः भवति कविनिबद्धेन वा वस्त्र इति द्विविधोऽपि अपरः इति निर्मितः इत्युक्ते वस्त्र कुत्रचित् कविः स्वयम् एवं भवति इति वदति कुत्रचित् कविः न वदति कविना निबद्धः एकः जनः अस्ति नाटके नायकः तस्य मुखात् वाचयति कविना उम्भितस्य इति नाम कवि तेन कल्पितः एकः जनः अस्ति तेन उच्यते कविनिबद्धप्रौढोक्ति इति वदति कविना एकः जनः निबद्धः अस्ति तस्य प्रौढया उक्त्या तत् चिन्त्यते एवं चिन्ता सो वस्तु अलङ्कारो भवति प्रौढा निन्दकः सोपि पुनः वस्तुरूपेण अलङ्कारः भवति इत्युक्ते स्वतस्सम्भवी इत्येकम् अनन्तरं
कवि
कविप्रौढोक्तिमात्रसिद्धम् इत्येकं
कविनिबद्ध
पुनः तत्र कविनिबद्धवस्तुप्रौढोक्तिसिद्धमात्रम् इत्येकम् त्रिविधं पुनः वस्तुरूपम् अलङ्कारः एवं तदन्यत्र चित्ररूपेण अपि दर्शयति तस्य वा वस्तु वा अलङ्कारो वा व्यङ्ग्यः इति द्वादशभेदः अर्थशक्तिर्भवो ध्वनिः अत्र अग्रे तदेव पूर्ण सतसम्भविनां वस्तुना वस्तुध्वनिः सतसम्भविनां वस्तुना अलङ्कारध्वनिः इत्यस्य पठन्ति वा क्रमेण उदाहरणम् स्वतःसम्भविना वस्तुना वस्तुनः गच्छौ स्वतःसम्भवी कश्चन वस्तु किञ्चन वस्तु अस्ति तद्वस्तु स्वयमेव सम्भवति तेन अन्यदत् वस्तु व्यज्यते कथं विद्यते अलकशिरोमणिः
अलकशिरोमणिः
भूतानाम् अग्रिमः पुत्री
भूतानाम् अग्रिमः पुत्री
धनसमृद्धिमयः
धनसमृद्धिमयः
इति भणिते ननकानि पिता पुत्री उद्दिश्य वदन्नस्ति पश्यतु एकः वरः भवितुमर्हति कीदृशः वरः इति चेत् अलसशिरोमणि गृहद्वये न गच्छति अलसशिरोमणि अस्ति धूर्तः धनसमृद्धिमयः विशेषधनमपि अस्ति इत्युक्ते दुःखं नाम किमर्थम् इति चेत् यथेष्टं धनमस्ति अलसः अस्ति गृहे एव तिष्ठति इत्युक्ते सर्वदा मम पार्श्वे एव भवति तस्य सन्तोषः भवति तावदेव अत्र मम एव उपभोगः इति वस्तुना वस्तु लेख्यते उक्तेन सर्वदा उपभोक्तुं शक्यते सुकुम्बं भवितुं शक्यते इति अन्यः अर्थः एकेन वस्तुना प्रथमवस्तु किम् इत्युक्ते श्लोकस्य अर्थः तेन अन्यः अर्थः द्वितीयः अर्थः सा तद्वस्तु प्रथमः वस्तुना वस्तु स्वतस्सम्भवि इत्युक्ते एतद्वयमपि स्वयमेव सम्भवति स्वतस्सम्भविना वस्तुना अलङ्कार यत् किञ्चित् स्वयं पठतु अर्थे किञ्चित् अस्ति एव अग्रानन्तरं पठतु स्वतस्सम्भविना अलङ्कारेण वस्तुध्वनि दर्पान्धगन्धगजकुम्भकपाटकूट
दर्पान्धगन्धगजकुम्भकपाटकूट
सङ्क्रान्तिनिघ्नघनशोणितशोणशोचिः
सङ्क्रान्तिनिघ्नघनशोणितशोणशोचिः
शोचिः इति भवेत् इति तदा वीरैर्व्यलोकियुधिकोपकषाय कान्तिः
वीरैर्व्यलोकियुधिकोपकषाय कान्तिः
कालीकटाक्षैव यस्य करे कृपाणः
कालीकटाक्षैव यस्य करे कृपाणः
यस्य महाराजस्य करे विद्यमानः कृपाणः कृपाणः नाम खड्ग खड्ग सः कृपाणः कृपणः न
कृपाणः
यस्य करे विद्यमानः कृपाणः कालीकटाक्षः इव अशोकः कालीदेव्याः कटाक्षः इव अशोकः स कथम् इति चेत् सः वीरैः व्यलोकि वीरैः दृष्टा भवति. वीराः तस्य कठिनं पश्यन्ति चेत् किं चिन्तयन्ति? साक्षात् बाल्याः अक्षाक्षः बाल्ये दृष्टवन्ति चेत् किं मरणमेव भवति तथा चिन्तितवन्तः. स कथमासीत् वीरैः व्यलोकि व्यलोकि नाम दृष्टः वीरे व्यलोकि विधि युद्धे कोपकषाय कान्तिः कोपेन कषायवर्णत्वं प्राप्तवान् अस्ति तादृशः किङ्कटाक्षः कोपकषाय कान्तिः. स पुनः दर्पाङ्गदण्डगजकुम्भकपाटकूटसङ्क्रान्तिनिघ्नघनशोणितशोणरोतिः आहत्य रक्तवर्णम् इति भिन्नत्वनिष्टं दर्पेण अन्धीभूताः ये दण्डगजाः सन्ति तेषां कुम्भ यदस्ति तस्य कपाटं यदस्ति तस्य कूटे सङ्क्रान्तं तद्युक्तं शोणितं रक्तमिदस्ति तद्वत् रक्तं च रक्तवर्णः तद्वत् केवलम् एतावत् अरुणवर्णयुक्तः. कालीदेव्याः कटाक्षपातः तद्वत् वीरैः कालीदेव्याः कटाक्षपातः इव अयं कृपाणः दृष्टः भवति. सवन्तमस्तु अत्र उपमालङ्कारेण कालीकटाक्ष इव इत्युक्ते किल उपमालङ्कारेण सकलरिन्द्रलक्षयः दृश्यते इति वस्तु. कालीकटाक्षसदृशः कृपाणः इति चेत् किं कः अर्थः विद्यते इति चेत् क्षणेनैव शत्रुनाशः क्रियते इति स्वतस्तम्भविना अलङ्कारेण अलङ्कारस्य पुरणं गाढकान्तदशनक्षतव्यथा
कश्चन
महाराजः युद्धे युद्धम् आरब्धव्यम् इदानीं तदा सः झटिति कोपेन स्वकीयमातरं दत्तवान् इत्युक्ते इदानीं युद्धं कुर्मः इति निर्णयं स्वीकृतवान् कुर्मः किल कोपेन कदाचित् निर्णयं स्वीकृतवान् इत्यर्थः. सः निजम् अधरं निर्दशन् इति युद्धे पृषा कोपेन निजाधरं स्वकीयम् अधरं निर्दशन् सः महाराजः किं कृतवान् इति चेत् शत्रुनार्यः सन्ति किल तासां सङ्कटं निवारितवान्. कः सङ्कटः इति चेत् शत्रुनारीणाम् अधरं पतयः गच्छन्ति पीडा भवति इतः परं सा पीडा एव यथा न भवेत् न इत्युक्ते किं कृतवान् सः सर्वान् शत्रु मारितवान् तेन तासां कृतपरिवर्षितं गाढकान्तदशनक्षतव्यथा गाढतया कान्तः स्वीयदशनैः दन्तैः क्षतं यत् करोति स्म तादृशव्यथारूपसङ्कटात् हरिवधूजनस्य मोचनं कृतवान्. हरिवधू शत्रुवधूजनानां तादृशकष्टादेव मोचनं कृतवान्. कानि ओष्ठविद्रुमदलानि विद्रुमसदृशानि ओष्ठाः ये सन्ति तेषां तादृशपीडातः निवारणं कृतवान्. ओष्ठविद्रुमदलानि अमोचयत् कः एषः महाराजः. अत्र एवं विरोधानुसारः अयं दशनं दशन् सः तत्र मोक्षं कृतवान् कथं भवति इति विरोधानुसारेण अधरनिर्दशनसमकालमेव शत्रवः व्यापादिताः इति तुल्ययोगितालङ्कारः. मम क्षत्र्या क्षत्यापि अन्यस्य क्षतिः विवर्तता इति तद्बुद्धिः उपेक्ष्यते. महाराजः वयं दशनस्ति स्वस्य पीडा भवति चेदपि तासां दशनपीडारूपकष्टं दूरीकृत्य दुःखी भवतु इति वदन्नस्ति इति उपेक्ष्यते इति उपेक्षः. एषु उदाहरणेषु स्वतः सम्भवीयं यतः अलङ्कारादिकं स्वतं सम्भवति एव अतः सम्भवति स्वतः सम्भवीयं
अग्रिमकक्षायां अद्य शुक्रवासरे 24 दिनाङ्कः
मङ्गलवासरे कः दिनाङ्कः आम् 27, 28, 29 नास्ति कानि दिनाङ्कः
ಗುರು
ವಿಳಂಬೇನಾಗಿ ಶಕ್ಯತೆ ತದನಂತರ